इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् भारत अमेरिकादेशयोः मध्ये व्यापारव्यवहारः वैश्विकव्यापारविषये सर्वकारस्य सुस्थिरः परिमितदृष्टिकोणञ्च प्रतिबिम्बयतीति। उद्योगसंस्थाः व्यापारसन्धिं स्वागतीकुर्वन्तः एतत् द्विपाक्षिकव्यापारं वर्धयिष्यति वृत्त्यवसराञ्च कल्पयिष्यतीति उक्तवन्तः। लोकसभायाः अष्टौ विपक्षीयसदस्याः सभायाम् असंसदीयव्यवहाराय अवशिष्टात् आयव्ययकसत्रात् निलम्बिताः। सर्वोच्चन्यायालयेन भारतीयानां डेटा इति दत्तांशानाम् आदानप्रदानं विरुध्य मेटा इत्यादिभ्यः बृहत्संस्थानेभ्यः सञ्चेतना प्रदत्ता। अपि च महिला प्रीमियर लीग क्रिकेट क्रीडायां गुजरात जायंट्स इत्येतद्दलम् अद्य सायंकाले वडोदरानगरे एलिमिनेटर इति क्रीडाचक्रे देहली कैपिटल्स इति दलेन सह क्रीडिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य एनडीए पक्षस्य संसदीय सदस्यान् सम्बोधयन् उक्तवान् यत् संयुक्तराज्यामेरिकादेशेन सह भारतस्य ऐतिहासिकव्यापारसन्धिः निरन्तरसहनशीलतायाः परिणामः अस्तीति। सूत्रानुसारं प्रधानमन्त्री मोदी अवदत् यत् व्यापारव्यवहारेण आर्थिकं वातावरणं निर्मितम् अस्ति तथा च वैश्विकव्यापारवार्तालापविषये सर्वकारस्य स्थिरं परिमाणीयञ्च दृष्टिकोणं प्रतिबिम्बयतीति। सः अवदत् यत् विपक्षिणः शुल्कस्य निन्दाम् अकुर्वन् परन्तु सर्वकारः सहनशीलः आसीत्, परिणामानि च अधुना दृश्यमानानि सन्ति। प्रधानमन्त्री अवदत् यत् विश्वव्यवस्था परिवर्तमाना अस्ति, तस्य मार्गश्च भारतं प्रति अधिकतया प्रवणः अस्ति। एनडीए इति पक्षस्य सांसदाः अद्य संसदभवनपरिसरे एनडीए संसदीयपक्षस्य सभायाम् ऐतिहासिक भारत अमेरिका व्यापारव्यवहाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः अभिनन्दनं कृतवन्तः। सभायाः अनन्तरं वार्ताकारैः सह वार्तालापं कुर्वन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् अमेरिकादेशेन सह व्यापारव्यवहारः ऐतिहासिकः अस्ति, यो हि भारत यूरोपीय संघ मुक्त व्यापार संघौ हस्ताक्षरस्य केवलं एक सप्ताहाभ्यन्तरे अभवदिति। सः अवदत् यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे सर्वे विकसितदेशाः भारतेन सह समन्वयेन कार्यं कर्तुम् इच्छन्तीति। श्री रिजिजुः अवदत् यत् अद्यावधि एकोनचत्वारिंशत् देशैः सह मुक्तव्यापार समन्वयाः हस्ताक्षरिताः सन्तीति।
39 डेवलप कंट्रीज के साथ जो डील हुए हैं वो इस चीज को दर्शाता है कि प्रधानमंत्री जी के नेतृत्व में आज जो डेवलप कंट्रीज है सब लोग भारत के साथ तालमेल करके एक साथ काम करना चाहते हैं, पार्टनरशिप में काम करना चाहते हैं। इससे हमारे आम लोगों का जिंदगी में बहुत फायदा होने वाला है।
नवनिर्वाचितः बीजेपीति दलस्य राष्ट्रियाध्यक्षः नितिननवीनः अपि एनडीए संसदीयपक्षस्य सभायाम् अभिनन्दितः। अवसरेऽस्मिन् केन्द्रीयमन्त्री अमितशाहः, डॉ एस जयशंकरः, राजनाथसिंहः, अश्विनीवैष्णवः, पीयूषगोयलः, किरेन रिजिजुः, नितिनगडकरिः, जेपी नड्डाः, अन्नपूर्णादेवी च प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अथ भारत अमेरिकादेशयोः जनानाञ्च ऐतिहासिकव्यापार समन्वयाय अभिनन्दनं कृतवन्तः। सामाजिकान्तर्जालीये सन्देशे केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः ऐतिहासिकव्यापार सन्धिं विन् विन् डील इति अमन्यत। श्रीवैष्णवः अवदत् यत् भारत अमेरिकादेशयोः मध्ये शान्तेः विकासस्य च कार्यस्य महती सम्भावना अस्ति। सः अवदत् यत् उभयोः देशयोः नागरिकाः उद्योगाः च अनेन व्यवहारेण लाभान्विताः भविष्यन्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेन्द्र मोदी पूर्वमेव अघोषयत् यत् मेड इन इंडिया उत्पादेषु अधुना 18% न्यूनीकृतं यूएस शुल्कं भविष्यतीति। सः अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह वार्तालापं कृत्वा सामाजिक प्रसार माध्यमे एषा घोषणा कृतवान्। स्वस्य प्रियमित्रेण राष्ट्रपतिना ट्रम्पेन सह वार्तालापः अद्भुतः आसीदिति। सः अवदत् यत् यदा द्वे बृहति अर्थव्यवस्थे विश्वस्य बृहत्तमं लोकतन्त्रं च मिलित्वा कार्यं कुर्वन्ति तदा जनेभ्यः लाभप्रदमेव भवतीति। भारतीय निर्यात संघटन संघः अपि भारत अमेरिका व्यापार व्यवहारस्य अन्तिमीकरणस्य स्वागतम् अकरोत्। एफआईईओ इत्यस्य अध्यक्षः एस सी रल्हन इत्येषः एतद् विकासं भारतीय निर्यातकानां कृते ऐतिहासिकं सोपानम् इति वर्णितवान्। सः अवदत् यत् शुल्कस्य न्यूनीकरणेन अमेरिकीय विपण्यां देशस्य उत्पादानां प्रतिस्पर्धात्मकता वर्धयिष्यतीति।
ये बहुत बड़ी एग्रीमेंट है क्योंकि यूएसए इज ए वेरी बिग मार्केट। मेरे ख्याल में जिस तरह रुका हुआ था एक्सपोर्ट का काम वो ऑलमोस्ट सारा द्वारा चल पड़ेगा। कई लोगों को तो ऑर्डर आ भी गए।
राज्यसभायां राष्ट्रपतेः अभिभाषणस्योपरि धन्यवाद प्रस्तावे चर्चा पुनः समारब्धा। नामनिर्देशितेन सांसदेन सी सदानन्दन मास्टर इत्यनेन ह्यः चर्चायाः प्रस्तावः कृतः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः जनवरी मासस्य 28 दिनांके उभयोः सदनयोः संयुक्त सम्मेलनं सम्बोधितवती। यदा लोकसभायां राष्ट्रपतेः अभिभाषणस्योपरि जायमाना धन्यवाद प्रस्ताव चर्चा अपराह्णे 2 वादने आरब्धा तदा विपक्षस्य नेता राहुल गांधी भाषणं कृतवान्। सः पुनः पूर्वसेना प्रमुखस्य एम नरवणे इत्यस्य अप्रकाशितं संस्मरणम् उद्धृत्य वक्तुकामः अभवत्। पीठासीन अधिकारिणा कृष्णप्रसाद टेनेटी इत्यनेन च भाषणस्य विरोधं कृत्वा उक्तं यत् अध्यक्षः ह्यः एव तस्य विषये निर्णयं प्रदत्तवान् इति। सः सूचीबद्धान् अन्यान् सांसदान् धन्यवाद प्रस्तावस्य विषये वक्तुम् आह्वयत्। ततः विपक्षस्य सांसदाः सभामध्यम् आगत्य विरोधप्रदर्शनम् आरब्धवन्तः येन लोकसभायाः कार्यजातम् अपराह्णे 3 वादनं यावत् स्थगितम्। लोकसभायां विपक्षस्य 8 सदस्याः अमर्यादित व्यवहाराय आयव्यय संकल्पना सत्रस्य शेषभागात् निलम्बिताश्च। एतेषु सांसदाः सन्ति मणिकम टैगोरः, अमरिन्दर सिंह राजा, गुरजीत सिंह औजला, हीबी ईडनः, डीन कुरियाकोसः, प्रशांत पडोलः, कांग्रेस दलस्य किरण कुमार रेड्डी, सीपीआईएम दलस्य एस वेंकटेशन इति च। यदा लोकसभायाः उपवेशनम् अपराह्णे 3 वादने तृतीयस्थगनानन्तरम् आरब्धम् तदा विपक्षस्य सांसदाः विभिन्नेषु विषयेषु विरोधप्रदर्शनम् आरब्धवन्तः आसन्। सर्वोच्चन्यायालयेन अद्य उक्तं यत् मेटेत्यादयः टेक् इति उद्योगाः दत्तांशहस्तान्तरणेति नाम्ना नागरिकाणां गोपनीयतायाः अधिकारेण सह क्रीडितुं न शक्नुवन्तीति। न्यायालयेन भारतीय प्रतिस्पर्धा आयोगस्य आदेशं विरुध्य प्रायः 250 कोटि रूप्यकाणां दण्डं विरुध्य कृतायां याचिकायां मेटा वाट्सएप इत्येतयोः गोपनीयता नीतीति विषये निन्दा कृता। मुख्य न्यायाधीशः अवदत् यत् यदि संविधानस्य अनुसरणं कर्तुं न शक्नुवन्ति एते चेत् उत्तरदायिनः भारतात् बहिः निर्गच्छेयुरिति। अन्ते क्रीडावार्तायां, महिला प्रीमियर लीग क्रिकेट क्रीडायाम् अद्य बडोदरा नगरस्य कोटाम्बीति क्षेत्रे वीसीए क्रीडांगणे महत्वपूर्णायाम् एलिमिनेटर इति क्रीडाचक्रे गुजरात जायंट्स दलं दिल्ली कैपिटल्स दलं विरुध्य क्रीडिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। अस्याः स्पर्धायाः विजेतृदलं गुरुवासरे अन्तिमक्रीडायां रॉयल चैलेंजर्स बेंगलुरु इत्यनेन सह क्रीडिष्यति। अन्ते मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् भारत अमेरिका देशयोः मध्ये व्यापार व्यवहारः वैश्विक व्यापार विषये सर्वकारस्य सुस्थिर परिमित दृष्टिकोणञ्च प्रतिबिम्बयतीति। उद्योगसंस्थाः व्यापारसन्धिं स्वागतीकुर्वन्तः एतद्द्विपाक्षिक व्यवहारं वर्धयिष्यतीति उक्तवन्तः। लोकसभायाः 8 विपक्षीयसदस्याः निलम्बिताः इति वार्ताः।